Starting, all attendees are in listen-only mode.
Namasarvebhyah. Adya Champuramayanasya Balakande Panchadashah Pathaha. March Masasya Dvadashah Dinankaha. Lakshmin tanotu nitaram itarana pekshamam hridayam nigama shakhi shikha pravalam hairambamam buruhadambara chaurya nighnam vighna dvibheda shatadhara dhurandharannaha. Dasharathaha putrakameshtim arabdhavan tatra haviraharanaya bhumim avatirnaha sarve devaha Brahmanam puraskritya kshirasagaram gatva tatra bhagavantan narayanam drishtva tasmai ravanasya akramanam tatkritam devanam durdashancha nivedhitavantaha devanam nivedanam shrutva Indra Nila Chalodan Chachandrika Dhavalasmitaha Vachamuche Sudhadharam Madhuram Madhusudanaha Vishnuhu Mandahasa Yuktaha Madhuram Abhashata Kim Abhashata Bhavatam Aparadha Vidhayinas Tasya Yatudhanasya Nidhanam Adhunaiva Vidhatum Shakyam Lokapidakaha Asau Ravanaha Adhunaiva Hantum Shakyaha Kintu Sarasijasana Shasanamutyamoghi Kurvan Nurvitale Putriyata Sutrama Mitrasya Dasharathasya Manoratamavipurayitum Adrita Manushaveshasan Ahamevatam Hanishyami Iti Vyahratya Antaradhat Brahmana Tasmai Varaha Pradattaha Manushyetaraihi Tasya Maranam Na Bhavishyatiti Tasya Vachanasya Satyapanartham Kincha Putran Ichataha Dasharathasya Manoratham Purayitum cha Aham Arthat Vishnuhu Manushya Rupena Jatasan Tam Ravanam Hanishyami Ityuktva Vishnuhu Antarhitaha Tatasa Parishad Animishanam Unmishita Harsha Hrishikesha Desha Prashamita Durdashani Nirdashananani Chaturdasha Bhuvanani Buddha Dukhtagaran Niragat Mahavishnuhu Vachanena Hrishtaha Devaha Achira Deva, Ravanasya, Hananam Bhavishyati Iti Jnatva, Kshira Samudrat, Nishkantaha. Ityetavat Paryantam Adhitam, Agre Pashyamaha, Tatastan Amaran Prahasma Pitamaha. Tataha Tan Amaran Prahasma Pitamaha. Tataha Taranantaram, Arthat Dudhasagarat, Kshira Samudrat, Sarve Devaha, Nirgataha. Tadanantaram, Tanamaran, Devan Prati, Pitamaha, Pitamaha Shabdena, Brahma Nirdishyate, Prahasma, Uvacha, Brahma Devan Uddishya Uktavan, Etavat Paryantam Mahavishnoh Vachanam Shrutam, Tataha Brahma Idanim Devan Uddishya Vadati. So then the creator, that is Brahma, he spoke to the Devas. Vaikunthat Nivartya Srishtikarta Brahma Tan Devan Uddishya Uvacha Bahusaralam Vakyamasti Amaraha Amara Nirjara Devas Tridasha Vibudha Suraha Iti Amarakoshe Devanam Paryayaparanam Arambhaha Eva Amaraha. So Amara is the first word that the Amarakosha gives for Devas. So Amaraha Nirjaraha Devaha Iti Prahasma ityatra vishesha dvayam asti. Praha pra upasargaha aha ityasti. Aha iti rupam brunya vyaktayam vachi iti dhatohu bhavati. Latlakare prathama purushe ekavachanam. Aha sounds like litlakara. Aha ahatuhu ahuhu ityadi. Kintu ब्रूधातोः लट्लकारे इदं रूपं ब्रुवः पञ्चानाम् आदित आहो ब्रुवः इति सूत्रमस्ति. अतः आदौ ब्रवीति ब्रूतः ब्रुवन्ति ब्रवीषि ब्रूतः इति पञ्चरूपाणां स्थाने पञ्चरूपेषु पञ्चसु रूपेषु ब्रूधातोः स्थाने आह इति आदेशः भवति. अतः ब्रवीति इत्यस्य यः अर्थः स एव अर्थः आह आह आहतुः आहुः आत्थ आहतुः इति पञ्चरूपाणि लट्लकारे ब्रूधातोः भवन्ति. अतः प्राह इति लट्लकारस्य रूपम्. तत्र लट्लकारः कथं सः उक्तवान् इति भूतकालार्थः एव विवक्षितः इति चेत् लट् स्मे इति सूत्रमस्ति. स्म शब्दस्य योगे लट्लकारः भूतकालार्थं द्योतयति. सो व्याकरणविशेषः अयम्. सो इट् इस् अ विशिष्टप्रयोग वन् विच् इस् स्पेशलि यूस्फुल् फार् बिगिनर्स्. सो बै यूसिङ्ग् द वर्ड् स्म स्म इति अव्ययम्. सो तस्य प्रयोगेन लट्लकारस्य रूपम् एव भूतकालार्थं बोधयति. सो उवाच इत्यनेन यः अर्थः स एव अर्थः आहस्म ब्रवीति स्म वदति स्म इत्यनेन भवति. सो बै वेन् वि आड् स्म द लट्लकार फार्म्स् कन्वेड् मीनिङ्ग् आफ् भूतकाल. सूत्रद्वयमस्ति लट् स्मे अपरोक्षे च इति. कः अर्थः स्म इति शब्देन योगे भूत अनद्यतने परोक्षे अपरोक्षे च लट्लकारः भवति इत्यर्थः. एतद् ज्ञातव्यं संस्कृते भूतकालं बोधयितुं त्रयः लकाराः सन्ति. वर्तमानकाले लट्लकारः एव. भूतकाले त्रयः लकाराः सन्ति लङ् लकारः लिट् लकारः एवं लुङ् लकारः. अगच्छत् इति लङ् लकारः जगाम इति लिट् लकारः अगमत् अगमत् इति लुङ् लकारः. तत्र कः अर्थः इति चेत् लुङ् लकारः सामान्यभूतकालः इत्युच्यते. सो लुङ् इस् द लकार विच् इस् यूस्ड् फार् सिम्पल् पास्ट्. So whatever has happened in the past without requiring any further specification, we can use lung lakara. Okay, but for using lung and lit there are specifications. Anadyatane lung lung lakara ha anadyatana bhutakalam bodhayati. Adyatana is today, anadyatana is not today. So lung lakara, strictly speaking, that is according to how Panini has framed it, so it has to be used for anadyatana bhuta, that is a past which is not today, which is not the immediate past, okay, sometime yesterday or earlier. So to say that I ate today morning, I cannot say aham adya pratah akhadam, not lang lakara. You can use lung akhadisham, okay, not akhadam. So lang lakara is anadyatana bhuta and lit lakara is परोक्ष अनद्यतन भूत. अनद्यतन भूत अगेन पास्ट विच इज ऑल्सो परोक्ष. परोक्ष मीन्स द स्पीकर हैज नॉट डिरेक्टली विटनेस्ड द इवेंट. सो दैट इज वाई लिट लकार, आई मीन द कॉमन थिंग दैट वी से अबाउट लिट इज यूज्ड इन काव्यास फॉर समथिंग विच हैपेंड वेरी लॉन्ग अगो. सो theoretically it need not have happened long ago, it is something which happened not witnessed by the speaker. Okay, so the speaker is only reporting something which he has heard or which he thinks which he has not directly seen. Okay, so that is paroksha. So these two sutras latsme and aparokshe say anadyatana bhute, the anadyatana bhutakala. So whether paroksha or aparoksha, you can use latlakara in association with sma. That is, the usage of latlakara with sma can be used in place of either lit or lung. Litlakarasya sthane athava langlakarasya sthane latlakarasya upayogaha kartum shakyate sma ityanena yoge. Okay, so prahasma इत्यस्य उवाच इत्यर्थः लिट्लकारार्थे अत्र लट्लकारस्य प्रयोगः ततस्तान् अमरान् प्राहस्म पितामहः पितामहः ब्रह्मात्मभूः सुरज्येष्ठः परमेष्ठी पितामहः इत्यमरः ब्रह्मा आत्मभूः सुरज्येष्ठः परमेष्ठी पितामहः सो सिन्स् ही इस् द क्रियेटर् ही इस् termed as Pitamaha, the grandfather of all beings. Bhavantastavad avatarishyato lakshmi sahayasya sahayyartham apsarah prabhatishu yuvatishu vanaraccha bhalla gopuccha neela mukha veshabhritah patitaprabhavah prajah prajananeyuhu iti. Parachheram vaktumichyanti. Janaki Bhagini. Nashruyate, you have to unmute yourself.
Bhavantaha Tavat Sahayasya Sahayartam Apsarat Pravritishu Yuvatishu Vanaratu
Vanaratu
Cha नीलमुखवेशभृतः प्रतिष्ठप्रभावाः प्रजाः प्रजनेयेयुः इति
भवन्तः तावत् अवतरिष्यतः लक्ष्मीसहायस्य साहाय्यार्थम् अप्सरः प्रभृतिषु युवतिषु वानर अच्छभल्ल गोपुच्छ नीलमुख वेषभृतः प्रथितप्रभावाः प्रजाः प्रजनयेयुः इति पितामहः प्राहस्म इत्यत्र अन्वयः किमाः पितामहः अर्थं वक्ष्यति भगिनी
भवन्तः अमरान् वदति भवन्तः विष्णोः साहाय्यार्थम् अप्सर प्रभृतिषु युवतिषु अप्सरसः सन्ति तेषु वानररूपेण भल्लूकः अस्तु भल्लूकः गोपुच्छ
नीलमुख सर्वेपि वानरप्रभेदाः
वानरप्रभेदाः तादृशान् रूपान् गृहीत्वा प्रजाः जनयन्तु वा
प्रजनयेयुः
प्रजनयेयुः इति विधिलिङ्ग् मध्ये अस्ति अतः प्रजाः
उत्पादयेयुः
उत्पादयेयुः प्रजाः उत्पादयेयुः इति पितामहः अमरान् वदति विष्णोः साहाय्यार्थं भवन्तः सर्वे अपि प्रजाः अप्सर स्त्रीषु उत्पादयेयुः इति सूचयति इति
वदति भवन्तः देवान् उद्दिश्य कथयति अतः यूयं देवाः तावत् नाम इदानीम् इति सम्प्रति अस्मिन् प्रसङ्गे अवतरिष्यतः भूलोके जनिष्यतः सो अवतरति अवतरिष्यति सो अवतरन् अवतरिष्यन् सो यः भविष्यत्काले अवतारं करिष्यति तादृशस्य इत्यर्थः लक्ष्मीसहायस्य लक्ष्मीसहायः लक्ष्म्याः सहायः पतिः श्रीरमणः नाम विष्णुः तस्य साहाय्यार्थम् तस्य सहयोगं दातुम् सः मनुष्यरूपेण अवतरिष्यति तस्य साहाय्यार्थम् अप्सरः प्रभृतिषु युवतिषु अप्सरसः सन्ति देवकन्यकाः मेनका प्रभृतयः अन्याः यक्षकन्यकाः विद्याधर्यः इत्यादिषु स्त्रीषु देवाः किल अतः तासु स्त्रीषु वानराच्छभल्ल गोपुच्छ नीलमुख वेषभृतः वानराः नाम मर्कटाः अच्छभल्लाः नाम भल्लूकाः बेर्स् सो वानराः दे आर् एप्स् बेर्स् गोपुच्छाः नीलमुखाः सो आल् दीस् आर् डिफरेण्ट् कैण्ड् आफ् मङ्कीस् सो गोपुच्छ मङ्की हूस् टेल् रिसेम्बल्स् दट् आफ् अ गो cow. Okay. So there are different things. There is actually this is I think similar to a monkey which is called a lion tailed macaque, which is actually very common in this southern India, in the Western Ghats. It is actually a state animal. Okay. So gopuchha. So it's the gopuchha and simhapuchha, they are similar. You know, there is one long tail and at the end you have that hairy brush kind of a thing. Okay. So that kind of a monkey. Neelamukha. So it is the one which has a black face, probably something like a langur. Okay. They have red face, black face, etc. So different kinds of monkeys. So vanara, achchaballa, gopuchha, neelamukha, ityadayaha kapi prabhedaha, tad veshabhrataha, teshu teshu vesheshu, arthat vanara veshe, achchaballa veshe, gopuchha, neelamukhadi, वेशेषु तत्तद्वेषधारिणः प्रथितप्रभावाः प्रथितः नाम विख्यातः प्रभावः नाम पराक्रमः अर्थात् अत्यन्तं पराक्रमिणः प्रजाः प्रजा इत्यनेन अत्र पुत्राः विवक्षिताः पुत्रान् प्रजनयेयुः उत्पादयेयुः सो भगवान् नारायणः रावणस्य वधार्थं भूलोके अवतारं करिष्यति तस्य साहाय्यार्थं वानरादि वेषधारिणः पुत्रान् भवन्तः सर्वेपि उत्पादयन्तु इति ब्रह्मा देवान् आदिशति सो आल् आफ् यू फार् हेल्पिङ्ग् द लक्ष्मी रमण दट् इस् विष्णु हू इस् गोयिङ्ग् टु टेक् बर्त् सो फार् हेल्पिङ्ग् हिम् You, all of you, produce mighty sons, Prathita Prabhavaha Prajaha, mighty sons in the form of different kinds of monkeys and bears, in women, with the help of women like the Apsaras and the other Stris, other women, the celestial women, Ityarthaha. सो हे देवाः भूलोके जनिष्यतः लक्ष्मीपतेः विष्णोः सहयोगार्थं यूयं सर्वे देवकन्यकासु स्वस्व अंशयुतान् पराक्रमिणः पुत्रान् मर्कटभल्लूकादिषु रूपेषु उत्पादयत इति पितामहः ब्रह्मा देवान् आदिष्टवान् तत्र रामायणं वाल्मीकिरामायणं पश्यामश्चेत् सो वी हेड् टेकन् अ डीटोर् फ्रोम् द वाल्मीकिरामायण बिकास् भोजा स्टार्टेड् द डिस्क्रिप्शन् आफ् रावण विच् इस् नाट् डिरेक्ट्लि गिवन् इन् द वाल्मीकिरामायण बट् नौ हि कम्स् बेक् टु द रामायण ओके सो बिफोर् दिस् गतवर्गे एव वक्तव्यम् इति चिन्तितं मया विस्मृतम् ईमेल् मध्ये प्रेषितमासीत् सो द रावणस्य वर्णनं कर्तुं भोजेन गद्यभागाः विरचिताः किल सो पञ्च गद्यभागाः सन्ति सो देर् आर् फैव् गद्यास् डिस्क्रैबिङ्ग् रावण फ्रम् सोऽयं कदाचित् क्रीडाधराधरमारुह्य एष मृगाङ्कोऽपि मृगयायासपरिश्रान्तिविश्रान्त्यै अनन्तरं तेन पुलस्त्य नन्दनेन सङ्क्रन्दननन्दनात् इति एतेऽपि पावकाः रूढिशङ्कावहामुतवहाख्यां वहन्तः स एष मानुषादवमाननमागमिष्यति सो फैव् गद्यास् एक्चुलि दे आर् वेरि पाप्युलर् गद्यास् विच् आर् वेरि कामन्लि यूस्ड् इन् लिटरेचर् वेरि पाप्युलर् सो all of you, please record these gadyas, one at least two, any two of your choice, and please send us the recordings. So that is like an assignment. So record it with samhita, like continuously. You can take breaks wherever required with proper pronunciation, and we'll select whichever is good. We'll put them on the website. Okay. So it is one thing for you to practice, and you know, the Gadya Bhagas, they are very attractive actually. Bhoja's words are extremely beautiful, and it will also inspire the other students. It will help them to achieve perfect pronunciation. Okay. So Kripaya Kimapi Gadyadvayam Bhavata Ishtam Gadyadvayam Mudrayitva. You can record it on your phone also and send it. Okay. Email Dwara sanskritfromhome@vyomalabs.in Iti Asmakam email ID asti. Atrayvasti. So email prati preshayantu. Okay. So please do send any two gadyas of your choice. So now coming back to the Ramayana. Valmiki Ramayane Valmikihi Kathayati. Putratvantu Gate Vishnau Rajnyastasya Mahatmanaha Uvacha Devata Sarvaha Svayambhur Bhagavanidam. Vastutaha Tatra Kim Bhavati Balakandasya Saptadashe Sarge Idamasti. Tatra Purvameva Payasa Pradhanam Purvasmin Sarge Vivratam Tadanantaram Ayam Prasangaha Valmikina Nirupyate Bhojastu Tatah Purvameva Prasangavashat. Since Bhoja has slightly modified his narration, so he takes it up before the Payasa Pradhana. So Atayvatra Putratvantu Gate Vishnau Rajnyastasya Mahatmanaha Ityeva Arabhate. Tatra Payasa Pradhanam Jatam Taha Rajnyaha Mahishyaha Garbhinyaha Jataha Tadanantarameva Yam Prasangaha Valmikina Kathyate. Bhojastu, he has transposed it before. Putratvantu Gate Vishnau Rajnyastasya Mahatmanaha Uvacha Devata Sarvaha Svayambhur Bhagavanidam. Bhagavan Svayambhuhu Brahma Sarvaha Devataha Uvacha. Satyasandhasya Virasya Sarvesham No Hitaishinaha Vishno Sahayan Balinaha Srijadvam Kamarupinaha. So Satyasandhasya Virasya No Hitaishinaha Atsmakam Hitarthameva Saha Avatarishyati Ataha Vishno Sahayan Balinaha Parakraminaha Srijadvam Kamarupinaha. So Atra Vishishya Vanaradi Vesheshu Kintu Te Kamarupinaha Sveshtam Vesham Dhartum Shaknumanti Maya Vidashcha Shuramshcha Vayuvega Saman Jave Nayagyan Buddhi Sampannan Vishnutulya Parakraman. Valmikihi Samyak Varnanam Karoti. Kidrashaha Bhaveyoho Maya Vidaha Rakshasaha Maya Mupayujya Yudhyanti Ataha Taihisaha Yudhartham Yete Api Maya Vidaha Shuraha Atyantam Parakraminaha Vayu Vega Saman Jave Vege Vayohu Vegena Tulyaha Nayajnyaha Neetim Ye Jananti Tadrishaha Buddhi Sampannaha Vishnu Tulya Parakramaha Vishnuna Tulyaha Parakramaha Tasya Mahasatasya Sahayartam Ye Bhavanti Tepi Atyantam Samarthaha Eva Bhaveyuhu Iti Balakandasya Saptadasha Sarge Itopi Vastataha Agre Varananam Asti Asamharyan Upayajnan Divya Samhananvitan Sarvastra Guna Sampannan Amrita Prashanan Iva Astutaha Devaha Eva Amrita Prashanaha Asamharyaha Samhartum Ashakyaha Upayajnaha Divya Samhananvitaha Divyayudhaihi Sahitaha Sarva Astra Gunasampannaha Etadrishan Janayantu Etarapi Kathayati Apsarasucha Mukhyasu Gandharvanam Tanushucha Yaksha Pannaga Kanyasu Riksha Vidyadharishucha. So you can see the difference between Valmiki and Bhoja. Where Valmiki gives a detailed description, Bhoja will summarize it because Valmiki has already expressed it so well. But where Valmiki is concise, Bhoja will expand. Okay. So that is how he takes the balance between Valmiki's Ramayana and his own. So he bases himself on Valmiki. But where Valmiki has given a detailed description, Bhoja will condense them with a single gadya. So he made it very clear. Apsarah prabhatishu yuvatishu. So Valmiki is specifying. Apsarasu gandharvanam tanushu yaksha pannaka kanyasu riksha vidyadharishu cha. Kinnarinam cha gatreshu vanarinam tanushu cha. Srijadvam harirupena putram tulya parakraman. Harirupena. So harayaha nama markataha ityavanaraha ityadi. Iti asmin bhage yaduktam tat bhojena kathyate. Avagatam bhavantastava davatarishyato lakshmi sahayasya sahayyartham apsarah prabhatishu yuvatishu vanaratcha bhalla gopuchya neelamukha veshabhrataha prathita prabhavaha prajaha prajanayeyuhu. Iti avatarishyataha ava iti upasargaha tru plavanataranayoho iti dhatuho lritlakarasya shatru. Samanyataha vayam yate shatru pratyayam pashyamaha latlakarasya shatru pratyayaha vadati vadannasti pathati pathannasti. Kintu lritlakarasya api bhavati lritasadva iti sutrena lritlakarasya api lritlakarasyapi shatru pratyayaha bhavati. Okay, pathishyati pathishyan, gamishyati gamishyan, evam avatarishyati avatarishyan iti bhavati. So avatarishyat iti pratipadikam takarantah pullingaha tasya shashti vibhaktau ekavachanam yaha avataram karishyati tasya ityarthaha. Lakshmi sahayasya, lakshmyaha sahayaha, lakshmi sahayaha tasya. Sahaya shabdaha samskrite saha eti gachati iti sahayaha. So sahaya shabdasya purushaha arthaha yaha sahayam karoti saha sahayaha saha gachati militva tena sahayaha gachati saha sahayaha. So lakshmyaha sahayaha lakshmya saha gacchati tasyaha patihi ityartha. Sahaya shabdastu sahayasya bhavaha sahayam. So sahaya ityasmat shyanya iti tadhita pratyaye sahaya shabdaha. So help ityarthe sahayam ityeva shabdaha. Sahayam iti na anya bhashasu vishishya kannada bhashayam sahaya shabdasya help ityarthah asti tasmin arthe prayujyate. Kintu samskrite sahayaha ityukte yaha sahayam karoti helper ityarthah. Sahayam iti tu help ityarthe prayujyate. Sahayasya bhavaha sahayam sahayaya idam sahayartham ityatra chaturthi tatpurusha samasah. लक्ष्मी सहायस्य साहाय्यार्थम् अप्सरः प्रभृतिषु युवतिषु वानराच्च भल्ल गोपुच्च नीलमुख वेषभृतः वानराश्च अच्छभल्लाश्च गोपुच्छाश्च नीलमुखाश्च इति द्वन्द्वसमासः. वानराच्च भल्ल गोपुच्च नीलमुखाः तेषां वेषः वानराच्च भल्ल गोपुच्च नीलमुख वेषः तम वेशम बिभ्रति धरति धरन्ति इत्यर्थः उपपदसमासः. वानराच्च भल्ल गोपुच्च नीलमुख वेशभृत् भृत् भृतौ भृतः. प्रजाः इत्यस्य विशेषणम् अतः तकारान्तः स्त्रीलिङ्गः द्वितीया विभक्तौ बहुवचनम् एकवचनम् न बहुवचनम्. वानराच्च भल्ल गोपुच्च नीलमुख वेशभृतः प्रथित प्रभावाः प्रथितः प्रभावः यासां ताः. पुनः एतदपि प्रजाः इत्यस्य विशेषणम् आकारान्तस्त्रीलिङ्गः द्वितीया विभक्तौ बहुवचनम्. सो द एकवचनम् इस् अ एरर्. सो उभयमपि बहुवचनम् प्रजाः. सो प्रजाः इत्यपि स्त्रीलिङ्गे द्वितीया विभक्तौ बहुवचनम्. प्रजा स्यात् सन्ततौ जने इत्यमरः. प्रजाशब्दस्य अर्थद्वयम्. पुत्राः सन्ततिः इति एकः अर्थः जनाः सो चिल्ड्रन् सब्जेक्ट् उभयः अर्थः अस्ति उभौ अर्थौ स्तः प्रजाशब्दस्य अत्र तु सन्ततिः इत्यर्थे उपयुक्तः प्रजनयेयुः प्र उपसर्गः जनी प्रादुर्भावे धातोः निजन्तः जायते जनयति सो जायते इस् टु बी बोर्न् जनयति इस् टु कास् टु बी बोर्न् सो निजन्तात् विधिलिङ्गकारः प्रथमपुरुषे बहुवचनम् जनयेत् जनयेताम् जनयेयुः भवन्तः जनयेयुः यु आल् मस्ट् कास् और् प्रोड्यूस् इत्यर्थः एनी क्वश्चन्स् भवन्तस्तावदवतरिष्यतो लक्ष्मीसहायस्य साहाय्यार्थम् अप्सरस्तभृतिषु युवतिषु वानराच्छभल्ल गोपुच्छ नीलमुखवेषभृतः प्रतिथप्रभावाः प्रजाः प्रजनयेयुरिति पुरैव किल मम जृम्भारम्भे सम्भूतवान् जाम्बवान् इति पुरा एव किल मम जृम्भ आरम्भे सम्भूतवान् जाम्बवान् इति सो ब्रह्मा एव एतदपि कथयति देवान् सर्वान् उक्तवान् भवन्तः जनयन्तु इति मयापि पूर्वमेव एतदनुष्ठितम् किम् पुरा पूर्वकाले एव मम नाम ब्रह्मणः जृम्भारम्भे जृम्भणसमये जृम्भणम् इत्यस्य योनिङ्ग् इत्यर्थः सो जृम्भणसमये सम्भूतवान् उत्पन्नः कः जाम्बवान् जाम्बवान् इति नाम्ना भल्लूकः भल्लूकानां राजा कश्चित् उत्पन्नः अतः सः अपि साहाय्यं करिष्यति सो ड्यूरिङ्ग् मै यान् अर्लियर् इट्सेल्फ् भल्लूक अबेर् किङ्ग् नेम्ड् जाम्बवान् हेस् बीन् क्रियेटेड् सो पूर्वमेव मम जृम्भणसमये जाम्बवन्नाम भल्लूकाधिपतिः सृष्टः सोऽपि विष्णोः साहाय्यम् आचरिष्यति इति ब्रह्मा कथयति समानमस्ति वाल्मीकिरामायणे पूर्वमेव मया सृष्टो जाम्बवान् ऋक्षपुङ्गवः जृम्भमाणस्य सहसा मम वक्त्रादजायत सो वेन् ऐ वास् योनिङ्ग् ही वास् प्रोड्यूस्ड् फ्रम् मै मौत् जाम्बवान् ऋक्षपुङ्गवः ऋक्षः नाम भल्लूकः अबेर् सो जाम्बवान् जम्बोः वर्णम् जाम्बवम् सो द कलर् आफ् द जम्बू फ्रूट् जम्बू द जामून् फ्रूट् नावपळम् नेरळे दट् फ्रूट् द डीप् पर्पल् आर् द ब्लाक् कलर् इस् काल्ड् जाम्बवम् तदस्य अस्ति इति जाम्बवान् So the meaning means he who is black or a dark, very dark blue or almost black in color. So jambu phala tulya varanaha ityarthaha. So jambavat shabdaha takarantah pullingaha prathama vibhaktau ekavachanam. Puraivakila mama jrambharambhe sambhutavan jambavan iti. Tataste girvanaha tatha kurvan. Tataha te girvanaha tatha akurvan. ततः तदनन्तरं ब्रह्मणः आदेशानन्तरं ते गीर्वाणाः देवाः सर्वेऽपि तथा अकुर्वम् तदनुगुणम् आचरितवन्तः अर्थात् ब्रह्मणः वचनानुगुणं देवाः वानरादिवेशेषु पुत्रान् जनयामासुः सो अगेन् वाल्मीकि गिव्स् अ डिस्क्रिप्शन् इन्द्र गेव् बर्त् टु वाली सूर्य वाज् गेव् बर्त् टु सुग्रीव and different ones he describes the major vanaras and the devas from whose amsha they were born okay so bhojastu etavadeva kathayati nirvanaah tatha akurvan iti athavaitana dvaishvanaran narah prajapatya same sahema patrah kashchiduttaya putriyate dasharathaya payasam amrataprayam prayachhat prachhedam vaktum icchanti Anybody? So the next Gadya, so this is over. The Devas, we took a detour from the Yajna. Dasharatha started performing the yajna. Sarayu rodhasi vidhaya tatra putriyam ishtim kartum arabhata. Tadanu haviraharanaya dharanau krutavataranaha. Ityanena devanam vishayaha uktaha. Idani matra punaha yajna pradesham prati agachati. So again we are coming back to the yajna, the putra kameshti of Dasharatha. So anybody? Saralam vakyam. Sharada Magini.
Namaste. Atha
Vaitanam. Vaitanat.
Vaishvanaran.
Vaishvanarat.
Prajapatyah.
Vaitanat.
Vaishvanarat. Vaitanat. Vaishvanarat. Naraham. Prajapatyah. Sah Hemapatrah. Kaschid Uttaya. Putriyate Dasharataya Payasam Amrita Pratam Prayachat.
So Atha Vaitanat Vaishvanarat Naraha Prajapatyah Sahema Patraha Kaschit Uthaya Putriyate Dasharataya Payasam Amrita Prayam Prayachat. Parashahartha.
Ataha tadanantaram. Vaitanam. Yaha yajnyam karoti.
Yajnya sambandhinaha ityarthaha.
Vaishwanaran. Narat. Vaishwanarat.
Vaishvanara Agnihi. Yajnasya Agnihi.
Hema patram, kanchana patram, kaschid uttaya, svikritya, putriyate dasarataya, yaha putra kameshti. Putram icchati Dasharatah. Tasya krite payasam amrita prayam dattavan. Prayachat dattavan.
Samyak.
Yajna purushah dattavan.
Samyak. So yajna kunda nirgatah kaschit purushah Dasharathaya payasam dattavan. Atha anantaram Vaitanat Vaishvanarat. Vaitanat nama yajniyat. Vitanam nama yajnaha. So Vaitanam. Vitanasya idam Vaitanam. So Vaitanaha. Vitanasya ayam Vaitanaha. Yajna sambandhi Vaishvanaraha. Vaishvanaraha nama agnihi. So yajnagnehe. So from the fire. From the sacrificial fire. Prajapatyaha naraha. So prajapatyah prajapatina preshitah prajapatyah kaschit purushah. So some divine being who was sent by Brahma, by the prajapati. Okay. Kaschit sahema patrah. Hema nama hiranyam kanchanam. So hiranmaya patra sahitah. So holding a golden vessel. Uthaya nirgatya. So he rose from the sacrificial fire. Putriyate. Putram atmanaha icchati. Putriyati. So we already seen the word. So santatim kamayate. Dasharathaya. Payasam. Paramannam. So the payasa. Amrita prayam. Sudhakalpam. Which was to him equivalent to nectar. As good as amrita. So, Amrita Tulyam பாயசம் பிராயச்சத் தத்தவான். அத வைத்தானாத்வைஷ்வானரான் நரஹ பிராஜாபத்ய சஹேம பாத்ரஹ் கஷ்சிதுத்தாய புத்ரீயதே தசரதாய பாயசம் அமிர்தப்ராயம் பிராயச்சத். ததஹ யஜ்ஞாக்னேஹே பிரஜாபதினா பிரேஷிதஹ கஷ்சித் திவ்ய புருஷஹ சமுத்தாய சுதாதுல்யம் சுதாகல்பம் பரமான்னம் புத்ரார்த்தினே தசரதாய தத்தவான். சோ ஃப்ரம் த சாக்ரிஃபிஷியல் ஃபயர் அ டிவைன் Purusha sent by the Prajapati, he rose holding a golden vessel and he gave payasa equivalent to nectar to Dasharatha who was desiring children. So tato vai yajamanasya pavakad atulaprabham pradurbhutam mahadbhutam mahavirtyam mahabalam. So that is the description of Valmiki. Yajamanasya payavakat. Yajamanaha dasharathaha. So he who was performing the sacrifice. Pavakat agnehe atulaprabham mahadbhutam pradurbhutam. So a great being. Atulaprabham of matchless kanti. Mahaviryam mahabalam pradurbhutam. Divya payasa sampurnam patrim. பத்னீமிவ பிரியாம் பிரகிருஷ்ய விபுலாம் தோர்பியாம் ஸ்வயம் மாயாமயீமிவ. சோ இட்ஸ் எ பியூட்டிஃபுல் டிஸ்கிரிப்ஷன் பை வால்மீகி. சோ ஹி வாஸ் ஹோல்டிங் அ பாத்ர அ வெசல் ஃபுல் ஆஃப் திவ்ய பாயச. ஓகே, பத்னீம் பிரியாமிவ பிரகிருஷ்ய, ஹோல்டிங் தட் வெசல் ஆஸ் இஃப் ஹி வாஸ் டெண்டர்லி ஹோல்டிங் ஹிஸ் டியர் வைஃப். ஓகே, சோ தோர்பியாம் பிரகிருஷ்ய மாயாமயீமிவ. ஓகே, சோ சமவேக்ஷ அப்ரவீத் வாக்கியம் இதம் தசரதம் நிருபம். சோ ஹி ஸ்பீக்ஸ் டு தசரத அண்ட் ஹி சேஸ் பிராஜாபத்யம் நரம் வித்தி மாமிஹாபியாகதம் நிருப. சோ நோ மீ டு பி அ பிராஜாபத்ய, தட் இஸ் அ மேன் சென்ட் பை த பிரஜாபதி ஹூ ஹாஸ் கம் ஹியர் அண்ட் ஹி சேஸ் ஹி கோஸ் ஃபர்தர் ஆன் அண்ட் ஹி சேஸ் ஐ ஆம் கிவிங் திஸ் பாயச விச் ஹஸ் பீன் ப்ரிப்பேர்ட் பை த தேவாஸ். சோ take this and your wishes will be fulfilled. Okay, so as you can see, Bhoja has taken that phrase naram prajapatyam. So prajapatyaha naraha. So he is condensing again the description in one line. Okay, so etat balakandasya shodasha sarge asti. So vaitanat vaishvanarat vitanah nama yajnah tasya ayam vitanasya ayam vaitanah. வித்தான சப்தாத் அண் இது தத்தித பிரத்யயஹ க்ரது விஸ்தாரயோர் அஸ்த்ரி வித்தானம். சோ வித்தான சப்தஸ்ய அர்த்தத்வயம், க்ரதுஹ யஜ்ஞஹ இது ஏகஹ அர்த்தஹ, விஸ்தாரஹ சோ வாஸ்ட்னெஸ் இத்யபி அர்த்தஹ அஸ்தி, வித்தானம் ஸ்ப்ரெட் இத்யர்த்தஹ. அத்ர து க்ரதுஹ இத்யர்த்தே உபயுக்தஹ. வைஷ்வானராத் அக்னிர் வைஷ்வானரோ வன்ஹிஹி வீதிஹோத்ரோ தனஞ்சய கிருபீட்டயோனிர் ஜுவலனோ ஜாதவேதாஸ் தனூனபாத். சோ ஒன் ஆஃப் த செகண்ட் சினானிம் ஆஃப் அக்னி இஸ் வைஸ்வானர. அக்னிஹி வைஸ்வானர வன்ஹிஹி பிராஜாபத்ய பிரஜாபதேஹே அயம் பிராஜாபத்ய பிரஜாபதி சப்தாத் ண்ய பிரத்யய அயமபி தத்தித. சஹேம பாத்ர ஹேம்னஹ பாத்திரம் ஹேம பாத்திரம் ஹேமபாத்ரேண சஹிதஹ இதி பஹுவ்ரீஹி சமாஸஹ. தி விசேஷ ஹியர் இஸ் தி வேர்ட் இஸ் சஹ, ரைட், சஹ இதி சப்தஹ தஸ்ய ஸ்தானே ஸ இதி ஆதேஷஹ பவதி. சஹஸ்ய சஹ இதி சூத்ரம் வ இதி அதிகாரே வோபசர்ஜனஸ்ய இதி சூத்ரம் தேன சஹ இத்யஸ்ய ஸ்தானே விகல்பேன ஸ ஆதேஷஹ பவதி. சோ புத்திரேண சஹ வர்த்ததே இத்யர்த்தே சஹ புத்ரஹ ஸ புத்ரஹ உபயம் ரூபம் பவதி. வி கெட் போத் ஃபார்ம்ஸ் இன் ஒன். த சஹ இஸ் ரிடெய்ன்ட், த ஆக்சுவல் வேர்ட் இன் த சமாச இஸ் சஹ. ஓகே, சோ சஹ புத்ரஹ, சோ இட் கேன் ஆப்ஷனலி பி ரிப்ளேஸ்ட் பை ஸ. சோ ச புத்ரஹ சதாரஹ சஹேம பாத்ரஹ So you can have two forms. Sahahema patraha, sahema patraha. Ubhayam yujyate. Hema patrena sahitaha. Iti bahuvrihi samasaha. Uttaya putriyate dasharathaya. Sarvam janimaha. Payasam amritaprayam prayachate. Athavaitanad vaishwanaran narah prajapatya sahema patraha kashchiduttaya. Putriyate dasharathaya mayasam amritaprayam prayachat. Agrimaha shlokaha. Anuvaktum icchanti. Anybody to repeat? Srikant Mahodaya.
Namaste.
Namaste.
Kausalyayai pradhamam.
Aham pathayami adau. Anantaram padachedam kurmaha. Kausalyayai pradhamam adishat.
Kausalyayai pradhamam adishat. Kausalyayai pradhamam adishat.
Bhupatih payasardham.
Bhupatih payasardham. Bhupatih payasartham.
Pradadartham pranayamadhuram.
Pradadartham pranayamadhuram. Pradadartham pranayamadhuram.
Kekayendrasya putriyai.
Kekayendrasya putriyai. Kekayendrasya putriyai.
Ete devyau taralamanasaha.
Ete devyau taralamanasaha. Ete devyau taralamanasaha.
Patyuralochya bhavam.
Patyuralochya bhavam. Patyuralochya bhavam.
Swardham shabhyam swayamakurutam.
Swardham shabhyam swayamakurutam. Swardham shabhyam swayamakurutam.
Purnakamam sumitram.
Purnakamam sumitram. Purnakamam sumitram.
Kausalyayai prathamam adishad bhupatih payasardham.
Kausalyayai prathamam adishad bhupatih payasardham. Kausalyayai prathamam adishad bhupatih payasardham. Adishat bhupatih payasardham.
Pradadardham pranayamadhuram kekayendrasya putyai.
Pradadartham pranayamadhuram kekayendrasya putriyai. Pradadartham pranayamadhuram kekayendrasya putriyai.
Ete devyau taralamanasah patyuralochya bhavam.
Ete devyau taralamanasah patyuralochya bhavam. Ete devyau taralamanasah patyuralochya bhavam.
Swardham shabhyam swayamakurutam purnakamam sumitram.
Swardham shabhyam swayamakurutam purnakamam sumitram. Swardham shabhyam swayamakurutam purnakamam sumitram.
Samyak. Svatra payasasya vibhagaha uchyate. Paracchedaha.
Kausalyayai prathamam adishat bhupatihi. Adishat bhupatihi payasartham. Pradat artham. Pranaya madhuram. Kekayendrasya putriyai. Ete devirau tarala manasaha patyuho alochya bhavam. Swardham swartha अंशाभ्याम स्व अर्ध अंशाभ्याम स्वयं अकुरुताम पूर्ण कामाम सुमित्राम
सम्यक् सो कौसल्यायै प्रथमं अदिशत भूपतिः पायस अर्धं प्रादात अर्धं प्रणय मधुरं केकय इन्द्रस्य केकयेन्द्रस्य पुत्र्यै एते देव्यौ तरल मनसः पत्युः आलोच्य भावं स्व अर्ध अंशाभ्याम स्वार्धांशाभ्याम स्वयं अकुरुताम पूर्णकामाम सुमित्राम सो वाक्यत्रयम् अस्ति कौसल्यायै प्रथमम् अदिशद् भूपतिः पायसार्धम् इति एकं वाक्यं प्रादादर्धं प्रणयमधुरं केकयेन्द्रस्य पुत्र्यै इति द्वितीयं वाक्यम् एते देव्यौ तरलमनसः पत्युरालोच्य भावं स्वार्धांशाभ्यां स्वयमकुरुतां पूर्णकामां सुमित्राम् इति तृतीयं वाक्यम् सो कौसल्यायै प्रथमम् अदिशद् भूपतिः पायसार्धम् अदिशत् इति क्रियापदं प्रायच्छत् इत्यर्थः दत्तवान् कः अदिशत् भूपतिः राजा दशरथः दत्तवान् किम् अदिशत् पायसार्धम् पायसस्य अर्धभागम् सो हाफ् आफ् द पायस दशरथ गेव् कस्मै अदिशत् कौसल्यायै सा एव राजमहिषी तस्य प्रधान राज्ञी सो तस्यै पायसस्य अर्धभागं प्रायच्छत् कदा अदिशत् प्रथमम् आदौ सो आदौ दशरथः पायसस्य अर्धभागं कौसल्यायै दत्तवान् ततः किं कृतवान् प्रादात् पुनः प्रदत्तवान् किं प्रादात् भूपतिः इत्येव क्रियापदं किं प्रादात् अर्धम् पायसस्य अपरम् अर्धभागम् द अदर् हाफ् सो द फस्ट् हाफ् हि गेव् टु कौसल्या द अदर् हाफ् प्रणय कीदृशम् अर्धम् प्रणयमधुरम् सो द फस्ट् वास् औट् आफ् ड्यूटी बिकास् शी वास् द राजमहिषी नौ दिस् इस् प्रणयमधुरम् प्रेम्णा स्वादु सो विच् वास् स्वीटर् बिकास् आफ् हिस् एडेड् अफेक्षन् आर् लव् फार् कैकेयि सो प्रणयमधुरम् अर्धम् केकयेन्द्रस्य पुत्र्यै केकयेन्द्रः केकयराजस्य पुत्री कैकेयी सो तस्य प्रेमास्पदा पत्नी कैकेयी तस्यै दत्तवान् सो हि गेव् द फस्ट् हाफ् टु कौसल्या एण्ड् गेव् द नेक्स्ट् हाफ् टु कैकेयी अग्रिमं वाक्यमस्ति अकुरुताम् अकरोत् अकुरुताम् द्विवचनं कृतवत्यौ इत्यर्थः कौ अकुरुताम् एते देव्यौ सो एते देव्यौ पूर्वमुक्ते द्वे देव्यौ अर्थात् कौसल्या कैकेयी च स्वयम् अकुरुताम् अर्थात् स्वयं ज्ञात्वा दशरथेन अकथिते एव सो विथौट् बीङ्ग् टोल्ड् बै दशरथ दे देम्सेल्स् कौसल्या एण्ड् कैकेयी किम् अकुरुताम् सुमित्राम् पूर्णकामाम् अकुरुताम् सो सुमित्राम् पूर्णकामाम् पूर्णः कामः यस्याः सफलमनोरथाम् सो दे मेड् हर् हेविङ्ग् बीङ्ग् फुल्फिल्ड् आफ् हर् डिसैर् सो दे फुल्फिल्ड् हर् डिसैर् आल्सो फार् अ चैल्ड् सो पुत्रस्य आशा या सुमित्रायाम् आसीत् ताम् आशां सफली कृतवत्यौ कौ एते देव्यौ कथं स्व अर्धांशाभ्यां हौ डिड् दे फुल्फिल् हर् डिसैर् थ्रू देर् हाफ् पोर्शन्स् सो कौसल्या गेव् हाफ् आफ् हर्स् टु सुमित्रा एण्ड् कैकेयी गेव् हाफ् आफ् हर्स् टु सुमित्रा स्व अर्धांशाभ्याम् सो द्वौ अर्धांशौ So two halves of their own. So Atmanoho Bhagasya Ardhabhyam. So each of them gave half of their portion to Sumitra and therefore fulfilled her desire also. Kimartham. So Kimartham Eva Makurutam Alochya Vichintya. Kim Vichintya Bhavam Abhiprayam. So they themselves, they understood the intention of Kasya Bhavam Patyuhu Dasharathasya Bhavam Alochya. Kidrishasya Patyuhu Tarala Manasaha Akula Chittasya. So Dasharatha, he has a payasa, he has given half to Kausalya and half to Kaikeyi. He does not have any more to give to Sumitra. So he is disturbed because he does not have anything to give to Sumitra. So understanding the dilemma that he was in, so Kausalya and Kaikeyi, they themselves gave half of their portion to Sumitra and fulfilled her desire. Kahanvayaha Bhupatihi Prathamam Kausalyayai Payasardham Adishat Tataha Pranayamadhuram Ardham Kekayendrasya Putriyai Pradat Ete Devyau Taralamanasaha Patyuhu Bhavam Alochya Swayam Sva Ardham Shabhyam Sumitram Purnakamam Akurutam. So Kim Tatparyam Praptapayasaha Dasharathaha Adau Rajamahishyai Kausalyayai Payasardham Datva Tataha Premaspadayai Kaikeyai Pritya Aparamardham Dattavan Tataha Subitrayai Payasam Na Shishtam Iti Vyakulasya Tasya Manobhavam Vijnaya Kausalya Kaikeyicha Swayam Svabhagabhyam Ardhamardham Sumitrayai Dattva Tasyaha Manoratham Puritavatyau. So the king, he first gave half to Kausalya, who was the his principal queen, and then the remaining half, so he gave to his beloved wife, which was Kaikeyi. So after it, he was disturbed as he did not have anything for Sumitra. So his two wives, Kausalya and Kaikeyi, understanding his situation, so they themselves gave half of their portion to Sumitra and fulfilled her desire also. So in this division, it is like equal quarters for, I mean, four equal quarters where Kausalya gets one, Kaikeyi gets one, and Sumitra gets two. Itu vastutaha Ramayana Disha Ayam Vibhagaha Na. So this is not how Valmiki portrays the Payasa Vibhaga. Okay. So Valmikina Bhinnataya Eva Uchyate. Kausalyayai Narapatihi Payasardham Dadautada. Prathamam Asti. So the first half he gave to Kausalya. Narapatihi Payasardham Kausalyayai Dadau. Ardhad Ardham Dadau Chapi Sumitrayai Naradhipaha. So remaining he has half. Tatra Ardham Sumitrayai Dattavan. Kaikeyai Chavashishtardham Dadau Putrarthakaranat. Now he has one fourth. So Avashishtasya Ardham. So half in that, which is 1/8, he gave to Kaikeyi Putrarthakaranat. Pradadau Chavashishtardham Payasasyam Ritopamam Anuchintya Sumitrayai Punareva Mahipatihi. So he now has something remaining still. First he gave half to Kausalya. So in the half which is remaining, half of that, which is 1/4, he gave to Sumitra. In the quarter which is remaining, half, 1/8, he gave to Kaikeyi. And then he still has 1/8. So Vichintya, Anuchintya, so thinking a bit, Sumitrayai Punareva Mahipatihi Dadau. So he gave that also to Sumitra. Sumitra gets two portions here. One is not equal portion. So Ramayana does not give equal division. So Kausalya gets half. Sumitra gets 1/4 plus 1/8. Kaikeyi gets 1/8. So Dasharatha himself gives Sumitra twice. अत्र बहूनि व्याख्यानानि सन्ति. अत्र अनुचिन्त्य सुमित्रायै पुनरेव महीपतिः महामतिः इत्यपि पाठः अस्ति. बहुधा व्याख्यानं क्रियते. अनुचिन्त्य हि थिङ्किङ्ग् ओवर् हि गिव्स् टु सुमित्रा, कः अर्थः किमित्यादि बहुधा व्याख्यानम्. किन्तु रामायणस्य दृष्ट्या अयं पायसविभागः. एवं तासां ददौ राजा भार्याणां पायसं पृथक्. सो हि हिम्सेल्फ् डिवैड्स्, हि हिम्सेल्फ् गिव्स् ट्वैस् टु सुमित्रा. ओके, एण्ड् हि हिम्सेल्फ् गिव्स् द लीस्ट् पोर्शन्, द स्मालेस्ट् पोर्शन् टु कैकेयी. दट् इस् रामायण. किन्तु दिस् वर्षन् यु नो इट् इस् नाट् भोजस् ओन्, भोजस्य स्वीयम् इति न. भिन्नेषु पुराणेषु एवं दृश्यते. कालिदासेनापि रघुवंशे एवमेव उच्यते, अर्धं कौसल्यायै अर्धं कैकेय्यै दत्तवान्, ते बहुज्ञस्य चित्तज्ञे पत्न्यौ पत्युर्महीक्षितः चरोरर्धार्धभागाभ्यां ताम् अयोजयताम् उभे. इट् इस् एक्साक्ट्ली द सेम् थिङ्ग् एस् भोजस् इस् विच् इस् गिवन् बै कालिदास आल्सो इन् द रघुवंश. ते पत्न्यौ नाम कौसल्या कैकेयी च चित्तज्ञे, बहुज्ञस्य महीक्षितः पत्युः चित्तज्ञे. सो अण्डर्स्टाण्डिङ्ग् द इण्टेन्शन् आफ् देर् हस्बेण्ड्, चरोः अर्ध अर्धभागाभ्याम् ताम् नाम सुमित्राम् अयोजयताम् उभे. सो इट् इस् द सेम् एण्ड् बोत् कालिदास एण्ड् भोज दे टेक् अ डिफरेण्ट् वर्षन् विच् इस् आल्सो फौण्ड् इन् सम् आफ् द पुराणास्, नाट् इन् द वाल्मीकि रामायण. ओके, सो दे कुड् हाव् डिफरेण्ट् रीसन्स् फोर् प्रिफरिङ्ग् देर् ओन् वर्षन्, बट् द पायस विभाग हेज् डिफरेण्ट् वर्षन्स् इन् डिफरेण्ट् इन् द रामायण एण्ड् द डिफरेण्ट् रामायणास्. सो कौसल्यायै प्रथममदिशद्भूपतिः पायसार्धम् प्रादादद्धम् प्रणयमधुरम् केकयेन्द्रस्य पुत्र्यै, एते देव्यौ तरलमनसः पत्युरालोच्य भावम् स्वार्धांशाभ्याम् स्वयमकुरुताम् पूर्णकामाम् सुमित्राम्. सो अदिशत् कौसल्यायै प्रथमम् अदिशत्, दिश अतिसर्जने इति धातोः लङ्लकारे प्रथमपुरुषे एकवचनम्. भूपतिः पायसार्धम् प्रादादर्धम्, प्रादात् प्र उपसर्गः, दुदाय् धारणपोषणयोः, दुदाय् दाने इति धातुः, धा इस् धारणपोषणयोः, हियर् इट् इस् दाने, दुदाय् दाने, ददाति तस्य लुङ्लकारः प्रथमपुरुषः एकवचनम् अदात्. प्रणयमधुरम् केकयेन्द्रस्य पुत्र्यै, एते देव्यौ तरलमनसः, तरलम् मनः यस्य सः, तरलमनाः तस्य, सकारान्तः पुल्लिङ्गः षष्ठीविभक्तौ एकवचनम्. सो तरलमनसः पत्युः भावम् आलोच्य स्वार्धांशाभ्याम् स्वयम् अकुरुताम्. सो अर्धांशाभ्याम् स्वयम् अकुरुताम् दुक्विण्यकरणे इति धातुः लङ्लकारे प्रथमपुरुषे एकवचनम्. सो अकुरुताम् पूर्णकामाम् सुमित्राम्. पूर्णकामाम्, पूर्णः कामः यस्याः सा पूर्णकामा, ताम् पूर्णकामाम् अकुरुताम्. So this vritta is Shardula Vikriditam. It is in 17 letters, so this should be Shardula Vikriditam. So Kausalyayai Prathamam Adishad Bhupatih Payasardham Pradadardham Pranayamadhuram Kekayendrasya Putyai, Ete Devyau Taralamanasah Patyuralochya Bhavam स्वार्धांशाभ्याम् स्वयमकुरुताम् पूर्णकामाम् सुमित्राम्. स्वद्यदृष्टम् ब्रह्मा ततस्तान् अमरान् प्राहस्म पितामहः, भवन्तस्तावदवतरिष्यतो लक्ष्मीसहायस्य साहाय्यार्थम् वानराच्च भल्लगोपुच्च नीलमुखवेषभृतः प्रथितप्रभावाः प्रजाः प्रजनयेयुः इति. सो विष्णोः साहाय्यार्थम् वानरभल्लूकादीन् जनयितुम् देवान् प्रति ब्रह्मणः आदेशः, पुरैव किल मम जृम्भारम्भे सम्भूतवान् जाम्बवान् इति ततस्ते देवास्तथा कुर्वन् अथ वैतानाद् वैश्वानरान् नरः प्राजापत्य सहेम पात्रः कश्चिदुत्थाय पुत्रीयते दशरथाय पायसम् अमृतप्रायम् प्रायच्छत् यज्ञाग्नेः उत्थितः कश्चित् पुरुषः दशरथाय पायसम् प्रयच्छति दशरथः पायसम् स्वीकृत्य पत्नीषु विभजति कौसल्यायै अर्धम् कैकेय्यै अर्धम् ददाति ते द्वे अपि स्वयम् स्वस्य आभागे अर्धमर्धम् सुमित्रायै प्रयच्छतः मन्दाक्रान्त सत्यम् मन्दाक्रान्ता जलधिषडघैः मन्दाक्रान्ता वृत्तम् क्षम्यताम् न तु शार्दूलविक्रीडितम् वृत्तम् कौसल्यायै प्रथममदिशत् ते जन् मन्दाक्रान्ता वृत्त लक्षणं तु पूर्वमपि दृष्टम् इति चिन्तयामि वि हेड् मन्दाक्रान्त अन्ये प्रश्नाः लक्ष्मीं तनोतु नितरामितरानपेक्षमङ्घ्रिद्वयं निगमशाखिशिखा प्रवालम् हैरम्बमम्बुरुहडम्बरचौर्यनिघ्नम् विघ्नाद्रिभेदशतधारधुरन्धरन्नः